सर्वेभ्यः नमस्काराः. आरभामहे. येनाक्षरसमां नान्यम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. सिद्धान्तकौमुद्याः परिभाषाप्रकरणे स्मः. गतकक्षायां परिभाषाणां विषये किञ्चित् अधीतम्. परिभाषाद्वयं च अधीतम्, इकोगुणवृद्धिः तथा अचश्च इति. इकोगुणवृद्धिः इति परिभाषया किम् उच्यते? यत्र गुणवृद्धिशब्दाभ्यां गुणवृद्धिः विधीयते, अर्थात् गुणो भवति, वृद्धिः भवति इत्युक्त्वा पाणिनिः गुणं वा वृद्धिं वा विदधाति, तत्र इकः इति पदं सूत्रार्थे सूत्रे उपतिष्ठते. अर्थात् यस्य गुणः वा वृद्धिः वा विहितः तस्य अवयवः यः इक् वर्णः इ उ लृ एतेषु अन्यतमः तस्य गुणः वा वृद्धिर्वा भवति इति सूत्रार्थः. यथा मिदेर्गुणः इत्युक्ते मिदधातौ यः इकारः इक् तस्य गुणः भवति. एवं मृजेर्वृद्धिः इत्युक्ते मृदधातोः यः इक् अत्र कृतारः तस्य वृद्धिः भवति इति अनया परिभाषया लभ्यते. तत्सदृशी एव परिभाषा आसीत् अतश्च इति. यत्र ह्रस्वः भवति अथवा दीर्घः भवति, प्लुतो भवति इति वा उच्यते पाणिनिना, तत्र अचः स्वरस्यैव ह्रस्वः दीर्घः प्लुतो वा भवति इत्यर्थः कल्पनीयः. अर्थात् शमामष्टानां दीर्घः क्ष्यनि इत्युक्ते शमधातोः यः अच् अर्थात् अकारः तस्य दीर्घः भवति इति सूत्रार्थः. एतत्तु आदेशस्य विषये जातम्. इदानीम् आगमानां विषये किञ्चित् विचारं करोति. आद्यन्तौ तकितौ इति अग्रिमं सूत्रं परिभाषाप्रकरणे. पदद्वयमस्ति, आद्यन्तौ तथा तकितौ. तकितौ इत्यस्य विग्रहः भवति तित् च कित् च. तित् नामकः ट् इति यस्य सः. यस्मिन् तकारः इत्सम्यकः भवति सः तित् इत्युच्यते. यस्मिन् ककारः इत्सम्यकः भवति सः कित् इत्युच्यते. तकितौ तित् च कित् च. तकितौ इत्युक्ते यस्य तित् यः तित् भवति अथवा कित् भवति सः आद्यन्तौ. क्रमात् तित् इत्युक्ते आदिः भवति, कित् इत्युक्ते अन्त्ये भवति. अत एव सूत्रार्थः लिखितः, तित् कितौ यस्य उक्तौ तस्य क्रमात् आद्यन्तावयवौ स्तः. यस्य तित् आगमः उच्यते. तित् कित् मित् इति आगमाः त्रिविधाः. There are three types of agamas. They are called tit, kit and mit. That is, they are identified by the letters, it, samya letters. If there is something in which takara is it, for example, there is something called nut or at or at. In all these things, we have an it samya for the takara. Therefore, all these will be classified as tit. Similarly, if there is nuk or shuk or nuk, any of these will be called kit because kakara gets the itsamya in these letters. And there is one more variety which is called mit, where you have num or shnam etc., where makara gets the itsamya, that will be called as mit. So agamas are basically of three types. They are called tit, kit and mit. Now if the agama is, what is an agama? An agama is something which a new particle which enters the scene. You have one thing or two things and you are adding a new particle. So the obvious question is, should it come before or after or somewhere in between? Right? So this sutra tells, if the agama is tit, it will come before the particle. Before whatever you are saying will get the agama. If you are saying X will get the agama, the tit will come before X, right? Similarly, if you are saying X will get a kit agama, then the kit will come after X. यत्कितौ यस्य उक्तौ तस्य क्रमात् आद्यन्तावयवौ स्तः. यदि तित् आगमः भवति तर्हि सः आदौ भवति, कित् आगमश्चेत् अन्ते भवति इति सूत्रार्थः. उदाहरणं पश्यामः. लुङ् लङ् लृङ्क्षु अड् उदात्तः इति सूत्रम् इदं तु प्रसिद्धमेव अस्ति. लुङ् लङ् लृङ् इति त्रिषु लकारेषु धातोः अट् इति आगमः भवति इति सूत्रार्थः. धातोः अट् इति आगमः भवति. अट् इत्यत्र तकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण इत्संज्ञा. अतः अयम् अट् इति तित् भवति. ति इत् यस्य सः तित्, यस्मिन् अति तकारः इत् भवति सः तित्. अतः अट् इति तित् आगमः. भूधातोः लङ्लकारे परे, भूधातोः लङ्लकारे परे अनेन सूत्रेण लुङ् लङ् लृङ् ष्वडुदात्तः इति सूत्रेण अडागमः करणीयः. किमुक्तम् अस्माकं परिभाषया? आद्यन्तौ कथितौ, यदि टित् आगमः अस्ति तर्हि आदौ भवेत्. तस्मात् भूधातोः प्राक् आदौ अकारः, अकारस्य इत्संज्ञा, अतः अकार एव शिष्यते. अकारः धातोः प्राक्, धातोः आदौ भवति. अभू लङ् अभवत् इति रूपम्. अत एव लङ्लकारे सर्वेषां धातूनां रूपाणि अकारादेव आरभ्यन्ते. अपठत्, अलिखत्, अवन्दत, अलभत, सर्वत्र अडागमः नाम एषः. धातोः अट् इति आगमः आगच्छति, तत्र आद्यन्तौ टकितौ इति परिभाषया आदौ भवति. अ भू लङ् इति सिद्ध्यति. सो सिन्स् अट् इस् अ टित् आगम, दिस् इट् विल् कम् बिफोर् इन् फ्रण्ट् आफ् द धातु. सो यु गेट् अ एण्ड् भू. नौ वाट् हेपन्स् इस् आगम इस् कित्. भियो हेतुभये शुक् इति सूत्रमस्ति. भी धातोः शुक् इति आगमः विहितः णिचि परे. शुक् इत्यत्र ककारस्य इत्सम्या, पुनः हलन्त्यम् इति सूत्रेण इत्सम्या. तस्मात् अयं कित् इत्युच्यते. क इत् यस्य सः कित्, शुक् इति कित् आगमः. कित् आगमः इत्युक्ते आद्यन्तौ टकितौ. टित् चेत् आदिः, कित् चेत् अन्त्यः. तस्मात् भी निचेति स्थिते भी धातोः अन्ते शुक् इति. शुक् इत्यत्र उकारस्यापि इत्संज्ञा अस्ति, ककारस्यापि इत्संज्ञा अस्ति. ष इत्येव शिष्यते. षकारः भी धातोः अनन्तरम् आगच्छति, अन्ते आगच्छति. भी षु निच् अग्रे प्रक्रियायां जातायां भीषयति इति रूपम्. सिन्स् शुक् इस् अ कित् आगम, यु आर् अप्लैङ्ग् इट् आफ्टर् द धातु, आफ्टर् द भी धातु. If it were kit, you would have applied it before the dhatu. Since it is a kit, you are applying it after the dhatu. So you add a shakara at the end of the dhatu and it will get the form called kishchayati. So adhyantau ta kitau tells, if the agama is kit, then you add it before the particle, before whatever you is the sthani. If it is a kit, you add it after the sthani. Now, I told you there is a third variety of agamas which is called mit. So, what happens to mit? Mida chon tyat paraha. This is sutram. Sattvari padani santhi. Mida achaha antyat paraha. Mit. Yukta mit yaha agamaha. Saha achaha antyat. Achaha ityukta shashchantam. Nirdharane shashthi ityukta. Acham madhye yaha antyaha. Ekasmin pade. त्रयः अचः सन्ति चेत् तृतीयः अच् भवति. अचां मध्ये यः अन्त्यः तस्मात् परः तस्यैव अन्तावयवः इक् स्यात् इति सूत्रार्थः. उदाहरणं पश्यामश्चेत् ज्ञायते. नपुंसकस्य झलतः इति सूत्रमस्ति. नपुंसकलिङ्गे प्रातिपदिकस्य नुम् इति आगमः क्रियते. नपुंसकलिङ्गे धातोः नुम् इति आगमः क्रियते. नुम् इत्यत्र मकारः इत्सम्यकः भवति, पुनः हलन्त्यम् इति सूत्रेण. तस्मादयं मित् इत्युच्यते. मित् भवति चेत् किम् उक्तम्? अजां मध्ये यः अन्त्यः तस्मात् परः, इदानीं ज्ञानशब्दः अस्ति, तस्मात् जस् प्रत्ययः जसः शि इति आदेशः भवति, इ ज्ञान इ इत्यस्ति. इदानीं नुम् इति आगमः करणीयः. क्व करणीयम् इति चेत् इदानीं ज्ञानशब्दे कति वर्णाः सन्ति? जकारः, ञकारः, आकारः, ज्ञा, पुनः नकारः, अकारः इति पञ्चवर्णाः सन्ति ज्ञानशब्दे. अच् द्वयम् अस्ति, ज्ञकारोत्तर आकारः, नकारोत्तर आकारः इति अच् द्वयम् अस्ति. अचां मध्ये यः अन्त्यः अकारः तस्मात् परः, अकारात् परत्वेन नुमागमः आगच्छति. नुम् इत्यत्र नकारः एव शिक्ष्यते. नुमागमः अन्त्याद् अचः परत्वेन भवति. अतः ज्ञानन् इ इति जाते दीर्घं विधीयते अपरेण सूत्रेण, ज्ञानानि इति रूपं भवति. इदानीं मनस् इति शब्दः अस्ति चेत् किं भवति? मनस् शब्दात् इ चौपरे, मनस् इत्यत्रापि पञ्चवर्णाः सन्ति, मकारः, अकारः, नकारः, अकारः, सकारः. तत्र पुनः अद्वयमस्ति, मकारोत्तराकारः एकः, मकारोत्तराकारः अपरः. इदानीं अचां मध्ये यः अन्त्यः नकारोत्तराकारः तस्मात् परः नुमागमः भवति, अर्थात् सकारात् प्राक्. अत्र अन्तिमः वर्णः सकारः, किन्तु ततः अपि पूर्वम् अन्तिम अचः परः भवति नुमागमः. तस्मात् मनन् दीर्घे सन्धौ सन्धिकार्ये कृते अनांसि इति रूपं सिद्ध्यति. तस्मात् मित् इति आगमः अन्त्याद् अचः परः, कित् आगमः अन्त्ये भवति. अर्थात् यदि कित् आगमः तर्हि अन्त्यः यः वर्णः अज्वा भवतु हल्वा भवतु तस्मात् परे भवति. मित् आगमः न तथा, यः अन्तिमः अज्वर्णः तस्मात् परः भवति. द मित् आगम विल् आल्वेस् बि एडेड् आन् नेक्स्ट् टु द लास्ट् अच् इन् युर् वर्ड्. If the word is an ajanta, that is if it ends with a swara, it will be added to the end of the word. But if it is a halanta, that is if it is ending with a vyanjana, then it will be added before the vyanjana. That is it will always be added next to the last swara, last oval in the word. Right? That is mit. Vidachon kyat paraha. Antyad atah paratvena mit iti agamha bhavati. Agamaha. त्रिधा भवन्ति, तित् कित् तथा मित्. तित् आगमश्चेत् आदौ भवति, कित् आगमश्चेत् अन्त्ये भवति, मित् आगमश्चेत् अन्त्याद् अतः परः अन्तिमस्वरात् परत्वेन भवति इति परिभाषाद्वयम्, आद्यन्तौ तथितौ निधचोऽन्त्यात् परः. अग्रे पश्यामः. Somebody's hand is raised. Hello, Padmavati. Hello. Did you have a question, Padmavati ma'am? I think her hand was raised by mistake. Ha. So, should we proceed?
Yes, please.
अग्रे विभक्तीनाम् अर्थः कः इति ज्ञातव्यमस्ति. पूर्वत्र किमुक्तम्? इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते इको गुणवृद्धिः इति सूत्रस्य चर्चावेदाय. सूत्रार्थः कः आसीत्? गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धिः विधीयते तत्र इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते. केनापि पृष्टमासीत् षष्ठ्यन्तम् इति किमर्थम्, कः अर्थः षष्ठी विभक्त्याः इति प्रश्नः. तदा किम् उच्यते? इदानीं विभक्तीनाम् अर्थाः के? साधारणतया विभक्तीनाम् अर्थाः भवन्ति, अर्थात् इदानीं द्वितीया विभक्तिश्चेत् सामान्यतया कर्म अर्थः, तृतीया विभक्तिश्चेत् कर्ता वा करणं वा अर्थः, सप्तमी विभक्तिश्चेत् आधारः अधिकरणम् अर्थः, पञ्चमी विभक्तिश्चेत् अपादानम् अर्थः इत्यादिरीत्या सामान्यतया लोके విభక్తీనాం విశిష్టాః అర్థాః భవంతి. కింతు వ్యాకరణ శాస్త్రే ఉపయుక్తానాం విభక్తీనాం కః అర్థః ఇది ప్రశ్న. తత్రాపి పరిభాషా ఇవ ఉత్తరం యచ్చతి. షష్ఠీ స్థానే యోగ ఇత్యస్తి పరిభాష. షష్ఠీ స్థానే యోగ ఇది పదద్వయం అస్తి. షష్ఠీ నామ షష్ఠీ విభక్తి, స్థానే యోగ బుద్ధ్యా ఇది అర్థ. అర్థాత్ షష్ఠీ విభక్త్యా స్థానం ఇది అర్థ. సామాన్యతయా షష్ట్యా కః అర్థ ఇది చేత ఏకశతం షష్ట్యర్థాః ఇది ఉచ్యతే. To say that Shashti Vibhakti is so widely used that it has more than 100 different meanings in which it can be used. Ekashatam Shashtyarthaha. Kintu Samanyataha Shashtyarthaha Sambandhaha. Iti Prasiddhamasti. Shashti Mama Pustakam. Ityukte Mama Pustakasvita Kastana Sambandhaha Asti. Ramasya Bharya. Rajyaha Putraha. Sarvatra Kastana Sambandhaha Pratiyate. Shashtya. తస్మాత్ సామాన్యత షష్ట్యా అర్థ సంబంధ. అత్రాపి సంబంధ ఏవ అర్థ ఇది వక్తవ్యం. కింతు వయమిదానీం శబ్దశాస్త్రే స్మః. షష్ట్యా సంబంధ అర్థ ఇత్యుక్తే కః సంబంధ ఇది ప్రశ్నః ఉదేతి. శబ్దస్య శబ్దేన సహ త్రివిధాః సంబంధాః భవితుమ్ అర్హంతి. లుకింగ్ ఫ్రమ్ ఎ జనరల్ పాయింట్ ఆఫ్ వ్యూ, జనరలీ వి సే ఇన్ లోక దట్ the meaning of shashti is sambandha, right? So the same thing would hold good in vyakarana. You will say that the shashti here will mean sambandha, but the question is what kind of sambandha is the next question. So if since it is vyakarana and we are speaking of words, any two words can have three types of sambandha among them. We are not speaking of meanings. If you have meanings, you get a lot of different types of relations. But if we are speaking of just words, we have three kinds of relations, right? So these three relations are called anantaryam, samityam and sthanam. Anantaryam, shabdayohu anantaryam, means two words which are next to each other without any space between them. For example, if I say iti and api, they are next to each other. Then you can say that ikara and akara, there is an anantarya. Antara is there being a break or a space. Anantarya is there being no space. It's one kind of relation you can have between two words. Then there is samitya. You can say one word is near to the other. Or you can say sthanam. That is one word is in the place of another. Instead of using one word, you use another. If you want to say a word, it can be a letter also. Right? So these are the three kinds of relations which are possible in among words or letters. Now the question is, among these three, which should we take by the shashti which is used in Vyakarana Shastra? Maya gatakakshayam eva uktam. Paribhashanam upayogaha kada bhavati. Yada kashchana sandehaha syat. Agamaha bhavati. Adau bhavati va ante bhavati va iti sandehaha asti chet. Adyantau takitau mirajvantyad paraha iti paribhashanam upayogaha bhavati. పాణినిరేవ ఆదౌ భవతి ఇది సూత్రే ఏవ వదతి చేత సందేహస్య అవకాశః నాస్తి. యత్ర సందేహః నాస్తి తత్ర పరిభాషాయాః ఉపయోగోపి నాస్తి. అనియమే నియమకారిణీ పరిభాష. యత్ర అనియమః తత్రైవ పరిభాషాణాం ఉపయోగః. ఇదానీం అత్ర అనియమః అస్తి. ఇకః యణ్ అచి ఇత్యుక్తే ఇకః ఇది షష్ఠీ శ్రూయతే. ఇకః యణ్ ఇత్యుక్తే యణ్ కుత్ర కరణీయః. ఇకః ఆనంతర్యేణ యణ్ విధేయోః. ఇకః సమీపే యణ్ కర్తవ్యోః. ఇకః స్థానే యణ్ కర్తవ్యోః ఇతి ప్రశ్నః సందేహః ఉదేతి. తదా కిం ఉచ్యతే అనేన అనయా పరిభాషయా షష్ఠీ స్థానే యోగా. యత్ర కుత్రాపి షష్ఠీ షష్ట్యాః ఉపయోగః క్రియతే చేత తస్య స్థానే ఇతి అర్థః. వ్యాకరణ శాస్త్రే షష్ట్యాః స్థాన నిరూపిత సంబంధః ఏవ స్వీక్రియతే. సర్వత్ర షష్ఠీ ఉపయోగ్యతే చేత్ స్థానే ఇది. స్థానం చ ప్రసంగః. ప్రసంగః నామ ఉచ్చారణ ప్రసంగః. స్థానం ఇత్యుక్తే ఇకో యణసి ఇది ఇకః ఇది షష్ఠీ. ఇకః స్థానే యణ్ భవతి ఇత్యుక్తే ಇತಃ ಉಚ್ಚಾರಣ ಪ್ರಸಂಗೆ ಯನ್ ಉಚ್ಚಾರ್ಯತೆ. ವಾಟ್ ಡು ಯು ಮೀನ್ ಬೈ ಸ್ಥಾನ? ಬೈ ಸ್ಥಾನ ಯು ಮೀನ್ ಇನ್ ಪ್ಲೇಸ್ ಆಫ್ ಇಸ್ ದ ಜನರಲ್ ಮೀನಿಂಗ್. ಬಟ್ ವಾಟ್ ಇನ್ ಪ್ಲೇಸ್ ಆಫ್ ಇಸ್, ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ಪ್ರೊನೌನ್ಸಿಂಗ್ ದ ಸ್ಥಾನಿ ಯು ವಿಲ್ ಪ್ರೊನೌನ್ಸ್ ದ ಆದೇಶ. ಎಕ್ಸಾಂಪಲ್, ಯು ಹ್ಯಾವ್ ಇತಿ ಅಂಡ್ ಅಪಿ, ವೇರ್ ಯು ಆರ್ ಪ್ರೊನೌನ್ಸಿಂಗ್ ದ ಇಕಾರ ಇತ್ ಇತಿ ಅಪಿ. ವೆನ್ ಯು ಡೂ ದ ಆದೇಶ, ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ದ ಎಂಡಿಂಗ್ ಇಕಾರ ಯು ಪ್ರೊನೌನ್ಸ್ ದ ಯಕಾರ ಇತಿ ಅಪಿ. ದಟ್ ಇಸ್ ವಾಟ್ ಇಟ್ ಮೀನ್ಸ್ ಎ ಸ್ಥಾನ. ಸ್ಥಾನ ಮೀನ್ಸ್ ಇನ್ ಕೇಸ್ ಆಫ್ ಪ್ರೊನೌನ್ಸಿಯೇಷನ್. ವೆನ್ ಯು ಆರ್ ಪ್ರೊನೌನ್ಸ್, ವೆನ್ ಯು ಆರ್ ಟ್ರೈಂಗ್ ಟು ಪ್ರೊನೌನ್ಸ್, ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ದ ಸ್ಥಾನಿ ಯು ಪ್ರೊನೌನ್ಸ್ ದ ಆದೇಶ. ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ಇಕ್ ಯು ಪ್ರೊನೌನ್ಸ್ ಎನ್. ದಟ್ ಇಸ್ ವಾಟ್ ಇಸ್ ಯಣಾದೇಶ. ಇಕಃ ಸ್ಥಾನೆ ಎಣ್ ಭವತಿ ಇತ್ಯುಕ್ತೆ, ಇಕಃ ಉಚ್ಚಾರಣ ಸಮಯೆ ಇಕಂ ವಿಹಾಯ ಎಣ್ ಉಚ್ಚಾರ್ಯತೆ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಅಯಮರ್ಥಃ ಕಥಂ ಲಭ್ಯತೆ? ಇಕಃ ಇತಿ ಷಷ್ಠೀ ಅಸ್ತಿ, ಷಷ್ಠೀ ವಿಭಕ್ತ್ಯಾಃ ಸ್ಥಾನೆ ಇತಿ ಅರ್ಥಃ. ಯತ್ರ ಯತ್ರ ಷಷ್ಠೀ ಉಪಯುಜ್ಯತೆ ತತ್ರ ತಸ್ಯ ಸ್ಥಾನೆ. ಇಕಃ ಇತ್ಯುಕ್ತೆ ಇಕಃ ಸ್ಥಾನೆ, ಧಾತೋಃ ಇತ್ಯುಕ್ತೆ ಧಾತೋಃ ಸ್ಥಾನೆ ಇತ್ಯಾದಿ ರೀತ್ಯಾ ಅರ್ಥಃ. ಸ್ಥಾನಂಚ ಪ್ರಸಂಗಃ, ಉಚ್ಚಾರಣ ಪ್ರಸಂಗಃ ಇತಿ ಷಷ್ಠೀ ವಿಭಕ್ತ್ಯಾಃ ಅರ್ಥಃ. ಷಷ್ಠೀ ಸ್ಥಾನೇ ಯೋಗ, ಸ್ಥಾನೇನ ಯೋಗಃ ಅಸ್ಯಾಃ ಅಸ್ತಿ ಇತಿ ಸ್ಥಾನೇ ಯೋಗ ಇತಿ ವಿಗ್ರಹಃ. ಸ್ಥಾನೇನ ಯುಜ್ಯತೆ, ಸ್ಥಾನ ನಿರೂಪಿತ ಸಂಬಂಧೇನ ಯುಜ್ಯತೆ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಕಿಂತು ಸೂತ್ರಾರ್ಥ ಲೇಖನ ಸಮಯೇ ಅನ್ಯದಪಿ ಪದಂ ಯೋಜಿತಂ ದೀಕ್ಷಿತೈಃ ಅನಿರ್ಧಾರಿತ ಸಂಬಂಧ ವಿಶೇಷ ಷಷ್ಠೀ ಸಹ ಅರ್ಥಃ ತಸ್ಯ. ಇದಾನಿಂ ಕುತ್ರಚಿತ್ ಷಷ್ಠೀ ವಿಭಕ್ತಿಃ ಅಸ್ತಿ, ತಸ್ಯಾಃ ವಿಭಕ್ತ್ಯಾಃ ಅರ್ಥಃ ಅನ್ಯೇನ ಪ್ರಕಾರೇಣ ನಿರ್ಧಾರಯಿತುಂ ಯದಿ ಶಕ್ಯತೆ, ಅರ್ಥಂ ನಿರ್ಧಾರಯಿತುಂ ಯದಿ ಶಕ್ಯತೆ ತದಾ ಇಯಂ ಪರಿಭಾಷಾ ನ ಪ್ರವರ್ತತೆ. ಇದಾನಿಮೇವ ಮಯಾ ಉಕ್ತಂ, ವೇರ್ ದೇರ್ ಇಸ್ ಅ ಆಪ್ಷನ್ ಆರ್ ವೇರ್ ದೇರ್ ಇಸ್ ಅ ಕನ್ಫ್ಯೂಷನ್, ದಟ್ ಇಸ್ ವೆನ್ ಯು ಹ್ಯಾವ್ ಎ ಚಾಯ್ಸ್ ವೆದರ್ ಯು ಹ್ಯಾವ್ ಟು ಡೂ ದಿಸ್ ಆರ್ ದಟ್, then only you can apply a paribhasha. If there is some other means in by which you can decide that it has to be this, then you cannot apply a paribhasha, you will not apply a paribhasha. Similarly here, if there is some other means by which you can decide or that shashti has some other meaning, then you will not use this paribhasha. Anirdharita sambandha vishesha, sambandha visheshah yadi nirdharitaha purvameva ತರ್ಹಿ ಅಸ್ಯಾಹ ಪರಿಭಾಷಾಯಾಹ ಉಪಯೋಗಃ ನಾಸ್ತಿ. ಯತ್ರ ಅರ್ಥವಿಶೇಷಸ್ಯ ನಿರ್ಧಾರಣಂ ನಾಸ್ತಿ ಸಂಬಂಧಃ ಕಃ ಇತಿ ನ ಜ್ಞಾಯತೆ, ತತ್ರೈವ ಅನಯಾ ಪರಿಭಾಷೆಯ ಸ್ಥಾನ ಸಂಬಂಧಃ ಇತಿ ನಿರ್ಧಾರಣಂ ಕ್ರಿಯತೆ. ಇದಂ ಕಿಮರ್ಥಂ ಇತಿ ಅಗ್ರೇ ಜ್ಞಾಯತೆ. ದಿಸ್ ಪಾಯಿಂಟ್ ವೈ ಹಿ ಸೇಸ್ ಅನಿರ್ಧಾರಿತ ಸಂಬಂಧ ವಿಶೇಷ ವಿಲ್ ಬಿ ಕ್ಲಾರಿಫೈಡ್ ಲೇಟರ್ ವೆನ್ ವಿ ಗೋ ಟು ಸಮ್ ಸೂತ್ರ. ಯು ಕ್ಯಾನ್ ಸೀ ದಟ್ ಯು ಕ್ಯಾನ್ ಡಿಸೈಡ್ ಸಮ್ ಸಂಬಂಧ ಫಾರ್ ಷಷ್ಠಿ, ಲೈಕ್ ಸೇ ಅವಯವ ಅವಯವಿ ವಿಭಾವ, ಯು ಕ್ಯಾನ್ ಸೇ ಸಮ್ ಅದರ್ ಸಂಬಂಧ ವಿಚ್ ವಿಲ್ ಬಿ ಡಿಸೈಡೆಡ್ ಬೈ ಸಮ್ ಅದರ್ ಮೀನ್ಸ್. ಇನ್ ಸಚ್ ಕೇಸಸ್ ಯು ವಿಲ್ ನಾಟ್ ಯೂಸ್ ದಿಸ್ ಪರಿಭಾಷಾ ಇಸ್ ವಾಟ್ ಇಟ್ ಮೀನ್ಸ್. ಸೊ ವೇರ್ ವಿಲ್ ಸಚ್ ಅ ಥಿಂಗ್ ಹ್ಯಾಪನ್ ವಿಲ್ ಸಿ ಸಮ್ ಟೈಮ್ ಲೇಟರ್ ವೆನ್ ವಿ ಸಿ ಅ ವಿಧಿ ಸೂತ್ರ ವಿತ್ ಸಚ್ ಅ ಕೇಸ್. ಬಟ್ ಫಾರ್ ನೌ ದಿ ಸೂತ್ರ ಮೀನ್ಸ್ ವೇರ್ ಎವರ್ ದೇರ್ ಇಸ್ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಇಟ್ ಮೀನ್ಸ್ ತಸ್ಯ ಸ್ಥಾನೆ ಯು ರಿಪ್ಲೇಸ್ ಇಟ್. ಐ ಮೀನ್ it need not be replacement, whether you are doing agama, adesha or pratyaya, shashti means khane. Okay, so now
Samaji, there are a few questions. Yes. Maybe you could look at them, and I would request everybody to just raise your hand when you have a question so that Samaya ji would know. Samaji, can you see the questions there? Yes, Swamiji, can you see the questions?
There is one question asked by Tejasvi, which is asking, why can't we interpret Ataha as the fifth case? Exactly, that is why Dikshita clarifies saying it is Shashti. There will be a difference in meaning if you use Panchami or Shashti. in all such cases. As in, you will find that in most Halanta words, the Panchami Vibhakti and the Shashti Vibhakti forms will be the same. So, when you want to know which Vibhakti to use, you generally have to rely on the commentary. Here, we need that Nirdharanartha, or I mean, Ajam Yaha Antyaha. That is that which is the last among the ovals. So, for that meaning, they have decided in the commentary, perhaps in the Bhashya, that it is the Shashti Vibhakti and not the Panchami Vibhakti. Okay. Then there is another question by Priya. How is Samipyam different from Anantaryam? Samipyam means even when there are three letters, say I have three letters, the first one could still be described as being Samipa to the third letter, even though there is something in between. It is just closeness. You will say there are four letters, the second one is more closer to the fourth than the first. That is Samipya. It is just being close. But Anantaryam is being next to each other without any space between them. Right? So Anantarya is, there is no break. It has to be next to each other. Samipya need not always be that. Okay. Does that answer the question? If you still have questions, you can ask. Any questions?
Please go ahead, Sumerji.
Shashti Sthane Yoga. Arthat Sthane. Shashti Vibhakto Yat Padam Ujjaritam. Tasya Sthane Karyam Bhavati. It is Utkar. किंतु यदा स्थाने कार्यं क्रियते तदा किं करणीयम् उदाहरणार्थं तद्दिने तयापि पृष्टमासीत् मिदेर् गुणः इत्युच्यते मिदधातोः गुणः भवति इति सूत्रार्थः इको गुणवृद्धि इति सूत्रेण इकः अर्थात् मिदधातोः यः इक् वर्णः इकारः तस्य गुणः भवति किन्तु गुणः नाम त्रयः वर्णाः अदेङ्गुणः इत्यनेन अकार एकार ओकाराणां गुणः इति संज्ञा विधीयते तत्र किमर्थम् एकार एव करणीयः कुतो न अकारः कुतो वा न ओकारः इति प्रश्नः उदेति गुणः इत्युक्ते त्रयाणां वर्णानामपि गुणसंज्ञा अस्ति कथं निर्धारः अयमेव वर्णः आदेशः भवेत् इति अस्य प्रश्नस्य उत्तरमपि परिभाषयैव दीयते स्थाने सरतमः इति अधुना परिभाषा स्थाने अन्तरतमः इति पदच्छेदः स्थानं च प्रसङ्गः इति इदानीमेव उक्तम् उच्चारणप्रसङ्गे सति अर्थात् कस्यचित् स्थानिनः प्रसङ्गे कस्यचित् कश्चित् आदेशः यदि क्रियते तदा सदृशतमः आदेशः स्यात् अन्तरतमः अन्तरशब्दस्य बहवः अर्थाः सन्ति अस्मिन् सूत्रे अन्तरम् इत्यस्य सदृशम् इत्यर्थः अन्तरतमः इत्यस्य सदृशतमः आदेशः स्यात् कश्चन स्थानी अस्ति चत्वारः आदेशाः यदि सन्ति तर्हि यः आदेशः स्थानिना अत्यन्तं सदृशः स्यात् स एव आदेशरूपेण भवति इति सूत्रार्थः उदाहरणं पश्यामः दधि अत्र इत्यर्थे इका इको यणचि इति सूत्रेण अत्र यणादेशः कार्यः इकारः इक् इकारात् अचि परे अकारे परे इकः स्थाने इकारस्य स्थाने यण् आदेशः करणीयः यण् इत्युक्ते चत्वारः वर्णाः य व ऋ ल कः करणीयः इकारस्य स्थाने इति प्रश्नः तदा सादृश्यं सदृशतमः आदेशः स्यात् इति अनेन सूत्रेण उच्यते सादृश्यं कथं निर्धार्यते अत्र स्थाननिरूपितं सादृश्यम् अर्थात् वर्णोत्पत्तिस्थाने यत् सादृश्यं तत् दृश्यते इकारस्य स्थानं भवति इकारः स्थानी Sthani is the one which is being replaced or which is being the Uddeshya of the Inikarya is called Sthani. Now, Sthani is the Ikara. The Varanotpatti Sthana of Ikara is Kalu. Right? Now, for Yen, you have four letters. Yu, V, R, R. For Yakara, the Sthana is Kalu. Ichu Yashanam Kalu. Vakarasya Dantoshtham. Rituraśānām mūrtha, Ritulasānām dantāha. Idāni, atyantam sadrishyam kasya asti, yakārasya asti, ikārena sadrishatamaha. Adeśeshu, ikārena sadrishatamaha yakāraha. Tasmātu ikārasya sthāne, yakāraha adeśaha bhavati, radhishatra, iti rūpam siddhyati. Prasange sati sadrishatamaha adeśaha siddhyat. Iti sūtrātra. Idāni, సాదృశ్యం కథం కతివిధం భవతి ఇది ప్రశ్న. స్థాన నిరూపితం సాదృశ్యమేవ వా అన్యదపి భవతి వా ఇది చేత చతుర్విధం సాదృశ్యం భవితుం అర్హతి. సాదృశ్యం చతుర్థ ఆది ఆదో భవతి స్థాన సాదృశ్యం. స్థానం నామ అత్ర అత్ర యత్ స్థానమస్తి తత్ వర్ణోత్పత్తి స్థానం. స్థాన శబ్ద అర్థద్వయే ప్రయుచ్యతే. స్థానేంతరతమ అథవా షష్ఠీ స్థానే యోగ ఇత్యత్ర యత్ స్థానమస్తి తత్ ప్రసంగ స్థానంత ప్రసంగ ఇత్యర్థః. కింతు స్థాన సాదృశ్యం ఇత్యతే వర్ణోత్పత్తి స్థానే యత్ సాదృశ్యం తదే స్వీక్రియతే. ఇకోనసి ఇత్యేవ అస్తి. ఇకారస్య కాలు స్థానం యణాం మధ్యే యకారస్య కాలు స్థానం ఇచు యశానాం కాలు ఇతి సూత్రేణ తస్మాద్య సదృశతమ ఇకారస్య యకారః ఆదేశః భవతి. ఉకారస్య ఓష్ఠౌ స్థానం యణాం మధ్య కస్యాపి ఓష్ఠస్థానత్వం నాస్తి. దేర్ ఇస్ నో లెటర్ అమంగ్ యణ్ విచ్ హాస్ ఓన్లీ ఓష్ఠౌ అస్ ద స్థాన. దట్ ఇస్ వై ద సూత్ర డజన్ సే సమానం భవేత్. ఇట్ డస్ నాట్ సే టూ లెటర్స్ షుడ్ బి ఈక్వల్. ఇట్ జస్ట్ సేస్ పిక్ ద క్లోజెస్ట్ పాసిబుల్. సో ఇన్ యువర్ చాయిసెస్ యూ డోంట్ హ్యావ్ ఓష్ఠ అస్ ద స్థాన ఫర్ ఎనీ లెటర్ బట్ యూ డూ హ్యావ్ అ దంతోష్ఠ. It has at least a portion of the oshtha, which will be the closest. Compared to everything else, this is closer. So, ukara is replaced by vakara. Madhu arihi, madhu arihi. Ritu rashana mudha. Ityanena rakarasya rephasyata mudha sthanam. Sadrishata matkata rakarasya yanadeshe rephaha adeshaha bhavati. Dhatra amshaha dhatramshaha. Evam rakarasya sthanam gantaha. లకారస్యాపి దంతాః తస్మాత్ లకారస్య ఆదేశః లకారః భవతి. ఇదం స్థానతః సాదృశ్యం. వర్ణోత్పత్తి స్థానే యత్ సాదృశ్యం భవతి తత్ స్థాన సాదృశ్యం ఇత్యుచ్యతే. కశ్చన ప్రశ్న. యన్ హాస్ ర అండ్ ల, వై డు యూ యూజ్ రు అండ్ లు? ఐ డిడ్ నాట్ అండర్స్టాండ్ యువర్ క్వశ్చన్. I'll unmute you just a second. Kiya has a question. Hello.
Kiya? Yes, Samyaji, this is on the previous page. The page before the one that we are currently viewing.
Oh, sorry. Yeah, this has to be. This is my mistake. This is Repha and Lakara. నౌ యూ హ్యావ్ దిస్ ఇస్ స్థాన సాదృశ్య వేర్ యూ కంపేర్ ద వర్ణోత్పత్తి స్థాన అండ్ టేక్ వాట్ ఎవర్ ఇస్ ద క్లోజెస్ట్. But this is not the only kind of sadrishya. We also have arthataha sadrishyam, sthana sadrishyam, artha sadrishyam. Artha sadrishyam, arthaha nama tadasya arthaha, meaning, so you take sometimes the closeness or similarity in meanings. For example, there is a sutra, paddan nomas, hran nishasan, yoshan, doshan, yakan, asan, yakan chasan, udan nasan, chas prakritishu. What Panini does in this sutra is, he just lists out a series of adeshas. This pada, dhata, nasa, mas, hrit, ish, asan, yushan, doshan, yakan, shakan, udan and asan. these are the adeshas. Okay? But the problem is he does not mention what is the sthani. He does not say what is the sthani for pad or what is the sthani for ishi, etc. Okay? So now your problem is how do you find the sthani for pad? So simple answer is arthataha. You know where all pad is used. Find out what is the meaning. So whatever is the word which carries the similar meaning will be the sthani. For example, pad is an adesha for pada. Pada shabdasya pada iti adesha. Ubhayor api arthe samyam asti. Tathaiva danta shabdasya dat iti adesha. Nasika shabdasya nasu iti adesha. Ityadi. आदेशाः उच्यन्ते स्थानीन निर्दिष्टः अत्र आसन शब्दस्य विषये सन्देहः जायते आसन इत्यस्ति आसन शब्दस्य आदेशः वा आस्य शब्दस्य आदेशो वा यतो हि इन सम अदर केसेस यू विल नॉट हैव अ डाउट बिकॉज़ द अनुक्रमणिका बाय पद यू नो इट इज वेरी सिमिलर टू पाद इवन इन द लेटर्स सो यू कैन डिसाइड दैट इट इज पाद शब्द बट इन दिस विदाउट द artha, you cannot decide whether asan is an adesha for asana shabda or for asya shabda. What do you do then is look at the meaning. Okay, where is this asan used? For example, it is used in some cases like habya jukvana asani or asanyam pranamuchuku. That is, you have to put the havis in the wherever. And asanyam pranam, the prana, the breath is in the word. So in both these cases, it is the meaning of asya, the mouth which fits, and not the meaning of asana. So by artha sadrishya, you decide that asana is an adesha for asya shabda and not asana shabda. This is called arthataha sadrishyam. There should be a similarity in meaning between the sthani and the adesha. Right? So sthana sadrishyam, tataha artha sadrishyam, agraya bhavati, gunataha sadrishyam. इदं तु पूर्वमेव अस्माभिः दृष्टम् अत्र गुणः नाम बाह्यप्रयत्नाः स्वीक्रियन्ते वाग् हरिः इत्यस्ति द्वयोहोन्यतरस्याम् इति सूत्रेण हकारस्य पूर्वसवर्णः आदेशः करणीयः पूर्वः नाम गकारस्य सवर्णः हकारस्य आदेशः भवेत् गकारस्य सवर्णाः भवन्ति पञ्चवर्णाः क ख ग ख ङ एतेषां मध्ये हकारस्य आदेशः कः भवेत् इति प्रश्ने गुणतः सादृश्यं स्वीक्रियते हकारस्य गुणाः नाम बाह्यप्रयत्नाः के संवारः नादः कोशः महाप्राणः इति बाह्यप्रयत्नाः इदानीम् आदेशे पूर्वसवर्णानाम् अर्थात् गकारस्य सवर्णानां विषये पश्यामश्चेत् गकारस्य विवारः श्वासः घोषः प्रयत्नः खयाम्यमः क्षयस्तस्थो इत्यादिना तथा अल्पप्राणः खकारस्य विवारः श्वासः अघोषः महाप्राणः गकारस्य संवारः नादः घोषः अल्पप्राणः गकारङकारयोः घकारस्य संवारः नादः घोषः महाप्राणः इदानीं सर्वेषाम् अपि कथञ्चित् सादृश्यमस्ति ककारस्य द ककार डस् नाट् हाव् एनी सिमिलारिटि अट् आल् खकारस्य महाप्राणविषये सादृश्यमस्ति गकारस्य संवारनादघोषविषये साम्यमस्ति किन्तु सदृशतमः अत्यन्तं सदृशः भवति घकारः यतोहि सर्वरीत्या सर्वविधेन साम्यमस्ति संवारनादघोषमहाप्राणरूपेण तस्मात् हकारस्य स्थाने घकारः एव आदेशः भवति गुणतः सादृश्यात् वाग्हरिः वाग्हरिः इति रूपं सिद्ध्यति इदं तृतीयप्रकारं सादृश्यं गुणसादृश्यं स्थानसादृश्यम् अर्थसादृश्यं गुणसादृश्यम् अन्तिमं भवति प्रमाणतः सादृश्यम् प्रमाणं नाम कालः कालप्रमाणं ह्रस्वः दीर्घः प्लुतः इत्येतेषां प्रमाणे सादृश्यं यद्भवति तत् प्रमाणसादृश्यम् इत्युच्यते उदाहरणार्थम् अदसोऽसेर्दादुदोमः इति किञ्चन सूत्रमस्ति किमुच्यते तेन सूत्रेण अदस् शब्दे अदस् नाम असौ अमु अमि इत्यादि शब्दः अस्ति तस्मिन् शब्दे दकारस्य मकारः आदेशः भवति दकारात् परस्य उकारः आदेशः भवति इति कार्यद्वयम् अनेन सूत्रेण विधीयते. दिस् सूत्र टेल्स् दट् द दकार इन् अदर्स् विल् बि रिप्लेस् वित् अ मकार एण्ड् वाट् एवर् फालोस् द दकार विल् बि रिप्लेस् वित् अ उकार. विल् सी टु एक्साम्पल्स् आफ् अदर्स्. वन् इस् द प्रथमा विभक्ति द्विवचन वेर् यु हाव् द औ एण्ड् द अदर् इस् द द्वितीया एकवचन वेर् यु हाव् द अम् इन् द सफिक्स्. We will read no more about these suffixes later. For now, this is Prathama Dvivachana and this is Dvitiya Ekavachana. Now, when you have others au or others am, in both cases, some general sutras apply. Don't worry about these sutras now. But I just had to show the prakriya, so I have included it. First, the sakara is replaced by an akara. And then the other and a, there is a pararupa. So, you have ada au or ada am. And then you have Dhrithirechi here, which becomes Adav, and Amipurvaha here, which becomes Adam. Now, our question is only at this stage. You have Adav in one case, and you have Adam in the other case. The Sutra tells that replace the with Ma. Okay, so Adav becomes Am in both cases. It also tells replace whatever follows the Dakara with U. Okay, here after Adav you have Au, which is a Dhrithaspara. Whereas here you have ada, after ada you have am, where a is hraswa. Okay. So, where it is dirgha, you replace with a dirgha ukara. It becomes amu, amu. Where it is hraswa, you replace with a hraswa ukara and it becomes amum. Right? So, this is called pramanataha sadrishyam. Yatra dirgha pramanatvam asti, tatra dirghaha eva adeshaha bhavati. Yatra स्थानि ह्रस्वः भवति तत्र ह्रस्वः एव आदेशः भवति. इदं प्रमाणतः सादृश्यम् इति उच्यते. प्रमाणं नाम उच्चारणे उच्चारणकालस्य प्रमाणं. प्रमाणतः सादृश्यम् अत्र उपयुज्यते. यदि दीर्घः अस्ति दकारात् परत्वेन तर्हि दीर्घः आदेशः क्रियते. यदि ह्रस्वः अस्ति तर्हि ह्रस्वः आदेशः क्रियते. इदं प्रमाणसादृश्यम्. चतुर्विधं सादृश्यमस्ति. स्थानसादृश्यम्, अर्थसादृश्यं, गुणसादृश्यं, प्रमाणसादृश्यम् इति. सो वेन् यु हाव् स्थाने अन्तरतमः, वेन् यु आर् रिप्लेसिङ्ग् संथिङ्ग् वित् संथिङ्ग् एल्स्, यु चेक् टु सी विच् इस् द क्लोजेस्ट् एण्ड् यु रिप्लेस् युर् स्थाने वित् दट् आदेश. नौ लेट्स् कम् टु अन् एक्साम्पल् काल्ड् विदेर्गुणः, विच् वि सा आल्रेडि. विदेर्गुणः tells you simply that nidadhatohu gunah syat. Okay. Now, if you apply the iko guna vriddhi, you will get the meaning that you have to add one ikaha here in the sutra artha. Means, nidadhatohu ikaha gunah syat. Na kevalam, the nidadhatu will not be replaced entirely by guna, only the ik of the nidadhatu, which is the ikara, will be replaced by guna. This is possible by the paribhasha iko guna vriddhi. Then you apply another paribhasha which tells shashti sthane yoga. Ikaha is shashti. So you say ikaha sthane. That is in place of ik. Instead of pronouncing the ik of mita, you will have to pronounce a guna letter. This is what this tells. Shashti sthane yoga. So because of this paribhasha, you include the word called sthane. Nidadhatohu ikaha sthane gunaha syat. Gunaha nam akaraha ekaraha okaraha. Kaha bhavet. स्थाने अन्तरतमः इत्युक्तं तस्मात् आन्तर्भ्यं सादृश्यं स्वीकरणीयम्. इकः नाम स्थानीकः इकारः, निद् इत्यत्र यः इकारः सः स्थानी, तस्य एतेषां मध्ये कः अत्यन्तं सदृशः इति द्रष्टव्यम्. निदधातोः इक् नाम इकारः. इकारस्य स्थानं परमोत्पत्तिस्थानं किं? तालु. इचेषाणां तालु. इकारस्य प्रमाणं किं? प्रमाणं भवति ह्रस्व. इदानीम् आदेशाः सन्ति अकार, एकार, ओकाराः. अकारस्य स्थानं कण्ठः, प्रमाणं ह्रस्वः. एकारस्य स्थानं कण्ठतालु, प्रमाणं नाम दीर्घः, दीर्घप्रमाणम् अस्ति. ओकारस्य स्थानं कण्ठोष्ठं, प्रमाणं दीर्घः. ओकारस्य केनापि विधेन सादृश्यं नास्ति. अतः ओकारः, यु केन् एलिमिनेट् ओकार बिकास् इट् इस् नाट् सिमिलर् टु युर् स्थानी इन् एनी वे. बोत् स्थान वर्णोत्पत्ति स्थान एण्ड् प्रमाण आर् डिफरेण्ट्, सो यु केनाट् यूस् इट्. बट् इफ् यु सी Akara is similar in its pramana to the sthani, and ekara is similar in its sthana to the sthani. That is varnotpatti sthana to the sthani. Kantha talu, which has a talu portion. So it is similar in its varnotpatti sthana but different in its pramana. Akara is similar in pramana but different in sthana. So which do you do? You still have a problem. That is, even using sthaneyantara tamaha, you cannot decide which, either should you do akara as the adesha or ekara as the adesha. Right? So for this, there is another paribhasha. The paribhasha is not a Panini sutra. This is a separate paribhasha, which tells, yatra aneka vidham antaryam, tatra sthanatah antaryam baliyaha. Yatra aneka vidham antaryam. Antaryam chaturvidham. Sthana, guna, artha, pramana ritya. Yatra aneka vidham, bahuvidham antaryam bhavati, tatra sthanatah antaryam baliyaha. If you have many different types of antarya among two things, then always the sthanatah antarya, the similarity in sthana is the strongest. That is, if you have a sthana sadrishya and a pramana sadrishya, you should always consider a sthana sadrishya. That is the deciding factor. Only if there is no sthana samya, then only you try to go for the other factors. If there is sthana samya, then you have to consider only that. That is why you do ekara as the adesha for ikara, because sthanena antaryamasti. Akarasya yadyapi pramanataha antaryamasti, tathapi anaya paribhashaya. Yatra aneka vidham antaryam, tatra sthanataha antaryam valiyaha ityuktatvat. Ikarasya sthane gunaha nama ekara eva bhavati. Sthana samyam asti ityataha. Mid ya ikarasya sthane ekara kriyate chet medyati iti rupam siddhyati. Right? So if there is a case where more than one of these can apply, then it is always the sthana sadrishya which is the most, which is the deciding factor, is what this paribhasha tells. Right? So now if you have any questions, please ask. Is it four Parihasha Sutras today? Two of them concerning the Agamas, Adhyantau Takitau and Nidachavantyasparaha. Then you have the Vibhaktyartha, Shashti Vibhakti, always means Sthane. And whenever you are using the Sthane, Prasanga, it is always the closest, Sadrisha Tama, which will be the Adesha. Sadrisha is of four types, and among these, Sthana Sadrisha is the most powerful. Right? Now, if you have any questions, please ask.